रुधिरप्लुता रुदती च शूर्पणखा रावणनामानं भ्रातरं असुराणां राजानं आगता। सः छिन्ननासाकरणां स्वसारं दृष्ट्वा महान्तं क्रोधं गतः। तेन वीर्यवति रामे मारीचं नाम राक्षसं मृगरूपिणम् अन्विच्छति अजनात् आश्रमात् सीता हृता। पुनः आगत्य सीतां न पश्यन् सः श्रीमान् राघवः महाविषादम् अभूत्।